स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम्।